ॐ सहनाववतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय।
सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र चित् चन इति प्रत्ययद्वयम्। तत्र यदि अहं तत्र गच्छन् अस्मि तत्र अहं शब्दं शृणोमि तत्र तत्र अहं गच्छामि तत्र कः अस्ति इति न जानामि किन्तु कश्चन अस्ति इति जानामि। कः अस्ति इति न जानामि किन्तु कोऽपि तत्र अस्ति। तत्र वयं किं वदामः कश्चन तत्र अस्ति। प्रकोष्ठात् यदि शब्दं शृण्मः वयं किं चिन्तयामः अस्तु प्रकोष्ठे कोऽपि अस्ति किन्तु न जानीमः कः अस्ति किन्तु कश्चित् प्रकोष्ठे अस्ति अथवा कश्चन प्रकोष्ठे अस्ति इति वदामः। अतः चित् अथवा चन इति यत्र योजनं भवति तत्र सम्पूर्णज्ञानं नास्ति निश्चयात्मकं ज्ञानं नास्ति। तत्र कश्चन राजा अस्ति कः इति न जानीमः किन्तु कोऽपि अस्ति इति। अतः तस्मिन् विषये वयं तत्र पाठं पठितवन्तः अपि केचन अभ्यासान् काञ्चन अभ्यासान् अपि कृतवन्तः। इदानीम् अग्रे सरामः। तत्र पुटसङ्ख्या अस्ति तत्र 280 पुटे तत्र षष्ठ अभ्यासः इति मन्ये। इदानीं तत्र पञ्चम अभ्यासः कृतवन्तः किन्तु षष्ठम् अभ्यासं न कृतवन्तः। अतः तत् इदानीं तम् अभ्यासम् इदानीं कुर्मः। अस्तु तर्हि तत्र सूर्यकुमारी भगिनी आरम्भं करोति वा। अष्टम न भगिनि तत्र षष्ठम् अभ्यासम् इदानीं पठतु।
तत् सङ्ख्याकां गीताश्लोकः परिशील्य रिक्तस्थानम् उचितैः चिच्चन प्रत्ययुक्तशब्दैः पूरयत।
तत्र तत् सङ्ख्याकं गीताश्लोकं यस्य श्लोकस्य सङ्ख्या दत्ता अस्ति तं श्लोकं परिशील्य तस्य श्लोकस्य परिशीलनं कृत्वा रिक्तस्थानस्य उचितैः चित् अथवा चन इति प्रत्यययुक्तशब्दैः पूरयत। तत्र श्लोकस्य सङ्ख्या वदतु भगिनि। तत्र तत्र द्वितीयाध्यायः अपि तत्र श्लोकस्य सङ्ख्या का नवविंशतितमः श्लोकः अथवा नवविंशः इति वक्तुं शक्नुमः। नवविंशतितमः श्लोकः अथवा नवविंशः श्लोकः द्वितीये अध्याये चिन्ता मास्तु। तत्र आश्चर्यवत् पश्यति
एनम् आश्चर्यवत् वदति तदैव चान्यः।
तत्र आश्चर्यवत् एनम् एनम् इति तत्र विभक्तिका
एनम्
तत्र वयं दृष्टवन्तः खलु तत्र एनम् इति
एनम् एनम् द्वितीयमहोदय
एनम् एनम् इमम् तत्र अयम् इदं शब्दस्य एकवचनरूपं द्वितीयविभक्ति एकवचनरूपम् एनम् इमम् इमम् अथवा
एतम्
एतम् आश्चर्यवत् वदति तथैव च अन्यः. तत्र नवविंशः श्लोकः तत्र कश्चित् इति अस्ति. आश्चर्यवत् पश्यति कश्चित् येन आश्चर्यवत् वदति तथैव च अन्यः. कश्चित् इति तत्र मध्ये अस्ति, कश्चित् इति अस्ति. तत्र कश्चित् इति विभक्ति का तत्र? प्रथमविभक्ति एकवचनं. तत्र सः कश्चित् इति एव कर्तृपदम् अत्र.
कश्चित्
आश्चर्यवत् पश्यति एनम्. एनं तु कर्मपदम् अस्ति खलु तत्र. एनं तत्र प्रायशः तत्र एनम् इति तत्र एतं तत्र आत्मा इति आत्मा अस्ति. आत्मा यः आत्मा अस्ति तं पश्यति अतः तम् अथवा एनम् अथवा एतम् एतं पश्यति. तत्र आत्मा इति अस्ति. आत्मापदस्य द्वितीयविभक्ति एकवचनरूपं किमस्ति? आत्मा इति प्रथम प्रथमविभक्ति एकवचनं. आत्मा आत्मा
नकारन्त
नकारन्तपदम्
नकारन्त
अतः
आत्मनम्
आत्मानम् आत्मानं खलु. अतः तत्र एनं
द्वितीय एकवचनं.
हा तत्र किं भवति? तत्र एनम् आत्मानं कश्चित् एनम् आत्मानम् आश्चर्यवत् पश्यति केनचित् अन्यः अन्यः तथैव आश्चर्यवत् वदति अन्यः वदति. तत्र केवलम् अर्धश्लोकः दत्तः किन्तु आश्चर्यवच्चैनम् अन्यः शृणोति श्रुत्वा येनं वेद न चैव कश्चित्. तत्र कोऽपि न जानाति आत्मा इत्युक्ते कः इति. यद्यपि तत्र पश्यति अथवा शृणोति वदति किन्तु न कोऽपि जानाति इति अर्थः. तर्हि अस्तु तत्र द्वितीयभागः तत्र एव दत्तमस्ति. अस्तु रघुपतिमहोदय तत्र द्वितीयार्धः अग्रे अग्रे एव अस्ति.
आश्चर्यवच्च एनम् अन्यः शृणोति श्रुत्वापि एनं वेद न चैव किमपि न चैव न चैव कश्चित्
कश्चित्
कश्चित् न चैव कश्चित् इति अस्ति. आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वापि एनं न वेद इति न वेत्ति इति न जानाति
न जानाति इति अर्थे
कोऽपि कश्चित्
कश्चित् कश्चित् न जानाति. अत्र न कोऽपि जानाति
न कोऽपि जानाति
न कोऽपि तत्र जानाति. अतः तत्र शृण्मः पश्यामः किन्तु वदामः किन्तु न कोऽपि जानीमः तत्र आत्मा कः इति. अतः तत्र पुनः कश्चित् इति प्रथमविभक्ति एकवचनमेव कर्तृपदम् अस्मिन् श्लोके. अस्तु समीचीनं महोदय. अस्तु अग्रे गच्छामः. लक्ष्मी भगिनी.
अस्तु महोदय. न हि क्षणमपि जादु तिष्ठत्यगर्मकृत्
संख्या का?
तृतीय अध्याये पञ्चम श्लोकः.
पञ्चम श्लोकः पञ्चमश्लोके. अस्तु
कश्चित् न हि कश्चित् क्षणमपि जादु तिष्ठत्यकर्मकृत्.
तत्र न हि तत्र कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्. तत्र तिष्ठत्यकर्मकृत् इति तत्र
तिष्ठति अकर्मकृत्
हा समीचीनं भगिनि तिष्ठति अकर्मकृत् तत्र अकर्मकृत् इति तत्र कर्मं विना कर्म विना कार्यं विना न कोऽपि स्थातुं शक्नोति खलु तत्र कस्मिन् क्षणे अपि तत्र किमपि कार्यं कुर्वन् एव अस्ति प्रत्येक तत्र जीवः अतः क्षणमपि कश्चित् क्षणम् अपि तत्र हा हा क्षम्यतां भगिनि तत्र
कञ्चित्
क्षण हा तत्र कञ्च हा तत्र क्षणः इति तत्र क्षणम् इति नपुंसकलिङ्गे अस्ति वा
अहं चिन्तयामि नपुंसकलिङ्गे क्षणम् क्षणमपि क्षणं क्षणमपि
हा जातु हा प्रायशः सत्यं भगिनि हा तदेव अस्ति इति मन्ये भगिनि हा अस्तु
कञ्चित्
पश्यामः
हा तत्र तदेव अस्ति वा इति
पुस्तके कश्चिदेव दत्तं
पुस्तके किन्तु तत्र हा तादृश अस्ति तत्र
कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्
नपुस्तकलिङ्गं महोदय अत्र नपुस्तकलिङ्गं क्षण इति
क्षण अस्तु क्षणं किन्तु कश्चिदेव दत्तमस्ति महोदय खलु तत्र
पुल्लिङ्गे अपि
हा अतः तत्र हा किन्तु किन्तु तत्र क्षणम् इति तत्र कश्चित् इति कर्तृपदमस्ति खलु भगिनि कश्चित् कश्चित् इति तत्र विशेषणं नास्ति क्षणम् इति पदस्य विशेषणं नास्ति अकर्मकृत् इति तत्र तस्य विशेषणं हा कः न हि कः कश्चित् अपि तिष्ठति अकर्मकृत् तत्र यावत् समयः इत्युक्ते तत्र क्षणमपि न जातु तिष्ठति अकर्मकृत् इति अतः तत्र प्रथमविभक्तिः एव अतः पुल्लिङ्गे एव अस्ति किं यद्यपि तत्र क्षणम् इति तत्र क्षणं क्षणं यावत् अतः समयस्य विषयः अस्ति अतः तत्र क्षणम् इति द्वितीयविभक्तिः किन्तु नपुंसकलिङ्गपदम् अस्ति अतः भेदः नास्ति क्षणम् इति एव भवति
पुल्लिङ्गमपि अस्ति पुल्लिङ्गमपि दत्तमस्ति
धन्यवादः अतः क्षणः अपि अस्ति लिङ्गद्वयं रघुवीरानन्दस्वामी नमस्कारः
हरि ओं महोदय
नमस्कारः महोदय इदानीं तत्र वयं द्व्यशीतितमः द्व्यशीतितमे पुटे स्मः तत्र षष्ठ अभ्यासः इदानीं तत्र तृतीयं तृतीयबिन्दुः अभवत् इदानीं चतुर्थः बिन्दुः तत्र हा अस्तु सूर्यकुमारी भगिनि
पापं न चैव सुकृतं विदुः पापं सुकृतं पापं न चैव सुकृतं विदुः पापं नपुंसकलिङ्ग महोदय
अस्तु भगिनि प्रथमतया तत्र श्लोकस्य संख्या वदतु भगिनि संख्यां वदतु
पञ्चदशमः
न तत्र दश अस्ति चेत् दशमः किन्तु तत्र तिथिः अस्ति चेत् तत्र एकादशीतमी तिथिः इति वदामः अथवा एकादशी इति वदामः पञ्चदश श्लोकः तत्र पञ्चम अध्यायः अथवा पञ्चमे अध्याये अपि पञ्चदश श्लोकः
दशं पूर्णप्रत्यये दशं भवति
किं भगिनि
पञ्चदशं दशमः
दश न केवलं दशः इति एव अस्ति खलु भगिनि तत्र पूर्णप्रत्ययान्तः वयं पूर्वं कृतवन्तः खलु तत्र दशमः तु दशमः किन्तु तदनन्तरं दशः इति अतः एकादशः इति अस्ति खलु एकादश इति वदति वा अथवा एकादशतमी तिथिः इति वदति वा भगिनि
एक मकार एव महोदय दशमः
दशमः तत्र मकारः अस्ति भगिनि किन्तु एकादशः तत्र तिथि एकादशी इति अस्ति खलु
एकादशी स्त्रीलिङ्ग भवति
सत्यं किन्तु तत्र एकादशतमी इति अस्ति वा
किं
भगिनि
तमी
इति नास्ति तमः अपि नास्ति एकादशः इति एव अस्ति भगिनि तत्र पश्यतु एकसप्ततितमे पुटे कोष्टकम् अस्ति खलु तत्र किं दत्तम् अस्ति एकवारं पश्य पठतु तत्र एकसप्ततितमे पुटे तत्र पठतु तत्र प्रथमतः तत्र विंशतिपर्यन्तम् एकवारं पठतु भगिनि तत्र पुल्लिङ्गे रूपाणि पठन्तु एकवारं
पञ्चदशः
न किन्तु एकवारं पठतु प्रथमः द्वितीयः इति एकवारं पठतु भगिनि
प्रथमः पञ्चदशः
न प्रथमः द्वितीयः इति विंशतिपर्यन्तम् एकवारं पठतु भगिनि केवलम् अभ्यासार्थं तावदेव
प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः अष्टमः नवमः दशमः एकादशः क्षम्यतां महोदय एकादश
द्वादशः त्रयोदश चतुर्दश षोडशः सप्तदशः अष्टादशः नवदशः
विंशतितमः
अस्तु समीचीनं भगिनि अस्तु इदानीं पुनः अत्र गच्छामः तत्र पञ्चादश
श्लोकः
अस्ति तत्र न आदत्ते
तत्र कञ्चित्
सुकृतं विभुः तत्र कस्य सुकृतम् इति प्रश्नः अतः तत्र कस्यचित् सुकृतं
कस्यचित्
विभुः विभुः इति कर्तृपदं षष्टि एकवचनं विभुः इति कर्तृपदम् आदत्ते विभुः इति तत्र प्रभुः तत्र विभुः
नादत्ते कस्यचित् पापं न चेत् सुकृतं विभुः
तत्र पापं वा सुकृतं वा विभुः न आदत्ते कस्यचित् यः कोऽपि भवतु तस्य पापं वा सुकृतं शुभकार्यं तत् यत् कृतं तद् न आदत्ते इति तत्र अस्तु समीचीनं कस्यचित् अग्रे रघुवीरेन्द्रस्वामी भवानेव अग्रिमं पठति वा इदानीं महोदय तत्र श्लोकस्य संख्या का
संख्या षष्ठाध्यायः चत्वारिंशः श्लोकः
चत्वारिंशः श्लोकः समीचीनं महोदय तमः अथवा केवलं चत्वारिंशः श्लोकः समीचीनं महोदय इदानीं तत्र
चत्वारिंशत्तमः श्लोकः
हा इदानीं तत्र दुर्गतिं न गच्छति न हि कल्याणकृत् दुर्गतिं तात गच्छति इदानीं तत्र रिक्तस्थाने तत्र किं भवितुम् अर्हति तत्र
कल्याणकृत् कश्चित्
हा कश्चित् कश्चित् कल्याणकृत् यः कोऽपि भवतु कल्याणकृत्यः हा भवानेव वदतु तत्र कल्याणकृत् दुर्गतिं तात गच्छति इति
कल्याणकृत् कल्याण यः कोऽपि अस्ति महोदय तत्र प्रायः पुल्लिङ्गे अपि स्त्रीलिङ्गे अपि तत्र भवितुम् अर्हति
किन्तु अत्र कल्याणकृत् इति अस्ति अतः तत्र पुरुषः वा महिला वा किन्तु कल्याणकृत् इति तत्र भेदः नास्ति कल्याणकृत् इति अस्ति अतः कश्चित् इति स्वीकृतं तत्र दुर्गतिं
दुर्गतिः अस्ति अतः दुर्गतिं
दुर्गतिं गच्छति किं गच्छति दुर्गतिं न गच्छति दुर्गतिं न गच्छति न प्राप्नोति दुर्गतिं न प्राप्नोति कः न प्राप्नोति यः कल्याणकार्यं कृतवान् अस्ति अथवा कृतवती अस्ति सः अथवा सा कश्चित् अथवा तत्र काश्चित् सः अथवा सा दुर्गतिं न गच्छति एव
कल्याणकृत् इति लिङ्गः कः
तत्र प्रातिपदिकरूपं दत्तमस्ति महोदय अत्र तु तत्र पुल्लिङ्गरूपं स्वीकृतं यतोहि तत्र कश्चित् कल्याणकृत् इति अस्ति
किन्तु तकारः अस्ति चेत्
अत्र पार्श्व पुल्लिङ्गपदं तत्र तत्र किं भवत् शब्दवत् इति तत्र वक्तुं शक्नुमः कल्याणकृत् अथवा हा महोदय क्षम्यतां प्रायशः तत्र कल्याणकृत् इति तत्र प्रायशः मरुत् शब्दवत् एव अस्ति वा इति तत्र तदपि भवितुम् अर्हति इति
प्रायः मरुत् शब्द इव भवेत्
हा सत्यं इति चिन्तयामि महोदय हा हा तत्र अतः
कल्याणकृत्
एव तत्र प्रथमविभक्तिरूपम् इति मन्ये हा
तदेव प्रथमविभक्तिरूपं
अकर्मकृत् अपि तदेव मरुत् शब्दवत् भवति वा अकर्मकृत् पूर्वं तृतीयम्
अत्र कश्चित् अस्ति खलु महोदय पुल्लिङ्गे अस्ति खलु
सत्यं सत्यम् अतः तत्र कल्याणकृत् हा यः कल्याणं करोति सः कल्याणकृत् अतः मरुत् शब्दम् इव पूर्वमपि तत्र अकर्मकृत् तदपि समीचीनं भगिनि तदपि सः तादृशमेव अस्ति हा अस्तु अस्तु तर्हि तत्र न गच्छति अस्तु हा वदतु महोदय रघुवीरानन्दस्वामी
आं महोदय कल्याणकृत् नपुंसकमपि अस्ति सुबन्तावली कल्याणकृत् कल्याणकृति कल्याणेषु
भवति भवति
त्रिषु लिङ्गेषु भवति महोदय कल्याणकृ
आम् स्त्रीलिङ्गं योजयामः चेत् भवति खलु समासे न भवत्
तत्र यः यः अथवा या अथवा यत् कल्याणकार्यं कल्याणं करोति सः अथवा सा अथवा तत् इति तत्र था इति नास्ति भगिनि केवलं थ इति नास्ति
समासः अस्ति अत्र समासः अतैव अतः कोऽपि अन्यः भवेत् कृत् कृ धातोः किमपि समासनियमः भवेत् न जानामि
अग्रे अग्रे एतस्मिन् विषये चिन्तयामः इदानीं मास्तु अस्तु अग्रे लक्ष्मी भगिनी
हा अस्तु महोदय मनुष्याणां सहस्रेषु यतति सिद्धये कश्चिदेव भवति वा
सत्यं भगिनि
कश्चित् यतति सिद्धये
कश्चित् यतति
सिद्धये
तत्र इदानीं तत्र अस्तु इदानीं मास्तु तत्र सिद्धये इति विभक्ति का भगिनि
सिद्धये प्रथमा विभक्ति
किन्तु तत्र
चतुर्थी
चतुर्थी समीचीनं तत्र कश्चित् यतति कश्चित् इति तु कर्तृपदं कश्चित् यतति प्रयत्नं करोति तत्र मनुष्याणां सहस्रेषु तत्र अनेकाः मनुष्याः सन्ति तेषु एकः कश्चित् प्रयत्नं करोति किं कर्तुं प्रयत्नं करोति
सिद्धये
तत्र सिद्धिं प्राप्तुम् इति अतः सिद्धये अतः चतुर्थी समीचीनं भगिनि अस्तु अग्रे रघुपति महोदय
यततामपि सिद्धानां मां वेति तत्त्वतः अतः अत्र यततानामपि सिद्धानां कश्चित् मां वेति तत्त्वतः सिद्धानां सिद्धेषु 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 एकः अतः सप्तमी अपि षष्ठी अपि भवितुमर्हति उपरि निर्धारणे उपरि सप्तमी अस्ति सप्तमी अस्ति अत्र षष्ठी अस्ति यततानां सिद्धि यततां अपि सिद्धानां कश्चित् मां वेति तत्त्वतः
तत्त्वतः मां वेति तत्र माम् इति कर्मपदं वेति कश्चन इति कर्तृपदं समीचीनं महोदय अस्तु अग्रे सूर्यकुमारी भगिनि
हनिः त्वां सुरसङ्घ इष्यन्ति वेताः प्राञ्चलयोः गृह्णन्ति विशन्ति केषित् वेताः अञ्जालयो गृहन्ति प्राञ्जलयो प्रा अञ्जलयोः गृहन्ति
तत्र
महोदय अमीहि त्वां सुरसङ्घा
विशन्ति
सुरसङ्घा
केचित् भीताः
केचित्
केचित् तत्र भीताः प्राञ्जलयोः गृह्णन्ति गृह्णन्ति केचित् तत्र तत्र के योगः चित् तत्र भीताः इति पदस्य
विशेषणं
तत्र केचित् तस्य विशेषणं भीताः
केचित्
प्राञ्जलयोः गृह्णन्ति भीताः ते भीताः सन्ति अमी हि त्वां तत्र अमी इति तत्र
बहुवचने अस्ति वा असौ अमु अमी इति बहुवचने
तत्र अदस् पदस्य
आमाम् एते इति इत्यर्थे
सत्यं महोदय अदस् इति पदस्य तत्र प्रथमविभक्ति बहुवचन
बहुवचन पुल्लिङ्ग
एते 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 हि तत्र इत्युक्ते तत्र निर्धारं तत्र त्वा त्वा इति तत्र तु त्वां त्वाम् इति तत्र तु युष्मत्पदस्य द्वितीयविभक्ति एकवचनं त्वां सुरसङ्घा विशन्ति तत्र अमिते विशन्ति विशन्ति इत्युक्ते तत्र पश्यन्ति इति अर्थे पश्यन्ति इति न विशन्ति क्षम्यतां विशन्ति ते तत्र
आगच्छन्ति
तत्र अन्ते गच्छन्ति प्रविशन्ति इति
प्रविशन्ति इत्यर्थे
प्रविशन्ति विशन्ति प्रविशन्ति तत्र के तत्र तत्र सुरसङ्घा सुरसङ्घाः तत्र सुराणां सङ्घा इति सुरसङ्घः एकवचने, अत्र तु सुरसङ्गाः इति बहुवचने. सुरसमूह समूहः इत्युक्ते सुर इत्युक्ते देवः, इन्द्रादिदेवाः, अतः देवगणाः अथवा देवगणः अथवा देवगणाः ते तत्र भगवतः अन्ते गच्छन्ति अथवा भगवन्तं प्रविशन्ति. अस्तु, समीचीनम्. अस्तु, अग्रे अग्रे कः? अस्तु, रघुवीरानन्दस्वामी.
दशनान्तरेषु केचित् विलग्नदशनान्तरेषु
केचित् इति समीचीनं महोदय. केचित् विलग्न दशनान्तरेषु सदृश्यन्ते चूर्णितैरुत्तमाङ्गैः. एकादश अध्यायः
सप्तविंशतितमः श्लोकः.
समीचीनं महोदय. अस्तु, अत्र दशान्तरेषु केचन इति अथवा केचित् समानमेव अस्ति, केचित् इति. अतः तत्र केचित् विलग्न दशनान्तरेषु. अस्तु अस्तु, अग्रे तत्र अन्तिमद्वयमस्ति तत्र. लक्ष्मी भगिनी अग्रे.
अस्तु महोदय. ध्यानेन आत्मनि पश्यन्ति आत्मनम् आत्मना. ध्यानेन आत्मनि पश्यन्ति कश्चित् अस्ति.
पश्यन्ति इति अस्ति खलु भगिनि.
केचित्
केचित् केचित्
आत्मानम् आत्मना.
तत्र रघुवीरानन्द स्वामी भवान् स्मरति वा तत्र ध्यानेनात्मनि पश्यन्ति इति श्लोकं? त्रयोदश अध्यायः चतुर्विंशः
चतुर्विंशति
आगच्छति.
अस्तु महोदय, चिन्ता मास्तु. अतः तत्र किन्तु केचित् एव तत्र केचित् इति अस्ति. तत्र केचित् आत्मानम् आत्मना पश्यन्ति.
केचित् एव ज्ञानेन आत्मनि पश्यन्ति केचित् आत्मना आत्मना आत्मना
आत्मानम् आत्मना. अत्र आत्मानम् एव समीचीनमस्ति. अत्र मुद्रणदोषः प्रायशः अस्ति. तत्र आत्मनम् इति दत्तमस्ति मम पुस्तके. भवत्याः पुस्तके किं दत्तमस्ति भगिनि? तत्र मम पुस्तके अपि तदेव अस्ति, किन्तु तत्र भगवद्गीता पुस्तके तु आत्मानम् इति एव दत्तमस्ति. अतः अत्र मुद्रणदोषः इति मन्ये भगिनि. आत्मानम् एव समीचीनम् अस्ति. आत्मानं
तदेव विभक्तिरूपः.
तत्र आत्मानम् इति द्वितीया विभक्ति, आत्मना इति तृतीया, आत्मनि इति विभक्ति का तत्र? अतः तत्र द्वितीया तृतीया सप्तमी सर्वम् अस्ति तत्र. अस्तु, अग्रे सूर्यकुमारी भगिनी.
हे पाथ, मे त्रिषु लोकेषु कर्तव्यं नास्ति. हे पाथ, मे त्रिषु लोकेषु कर्तव्यं
तत्र कर्तव्यम् इति नपुंसकलिङ्गे अस्ति भगिनि, अतः तत्र किं
किञ्चन
कर्तव्यं नास्ति. तत्र भगवतः वाक्यम् अस्ति, तत्र श्रीकृष्णभगवान् वदति तत्र हे पार्थ, मे त्रिषु
लोकेषु किञ्चन कर्तव्यं नास्ति.
किञ्चित् अपि तत्र कर्तव्यं नास्ति, तत्र तत्र किमपि कार्यं नास्ति, तथापि अहं कर्म करोमि इति. अतः तत्र अहं किञ्चित् अथवा किञ्चन, तत्र भगवद्गीतायाः श्लोके तु किञ्चन इति अस्ति रूपं, किञ्चन कर्तव्यं नास्ति. अस्तु, समीचीनम्. इदानीम् अग्रे गच्छामः. तर्हि अग्रे रघुपतिमहोदय, अग्रिमे पुटे.
आवरणे विद्यमानेषु रूपेषु उचितेन रूपेण रिक्तस्थानं पूरयत. यथा छात्राः सर्वदा जल्पन्ति, केचन छात्राः सर्वदा जल्पन्ति. छात्राः बहुवचनमस्ति, प्रथमं
विभक्ति
केचन, अतः केचित् छात्राः केचन. अत्र नाटकस्य सारांशं वद. नाटकस्य इति नाटकम् इति नपुंसकलिङ्गमस्ति, षष्ठीविभक्ति. अतः कस्याश्चित् कस्यचित् केषाञ्चित् कस्यचित् एव, कस्यचित् नाटकस्य सारांशं वद
भवति. सारांशं वद. समीचीनं महोदय. तत्र वद इति लोट्लकारः,
लोट्लकारः मध्यपुरुषे एकवचने.
समीचीनं.
त्वं वद,
त्वं वद इति. अस्तु, अग्रे रघुवीरानन्दस्वामी. तृतीयबिन्दुः,
नाटकस्य सारांशं वद. कस्य
तत् कृतम् इदानीम् अग्रिमं.
शीघ्रं गच्छ, आपणात् पुस्तकम् आनय. कस्मा आपणम् आपणः
आपणात् इति विभक्ति का?
आप हा महोदय, तर्हि आपणः एव भवति पुल्लिङ्ग. कस्माच्चित् शीघ्रं गच्छ, कस्माच्चित्.
हा, समीचीनं महोदय. कस्माच्चित् आपणात् पुस्तकम् आनय. अत्र पुस्तकम् आनय, तत्र क्लेशः नास्ति, तत्र महत्वं नास्ति कस्मात् आपणात्, किन्तु कस्माचित् आपणात् आनय, पुस्तकं तु आनय इति. समीचीनं महोदय. अस्तु, अग्रे सूर्यकुमारी भगिनि.
महोदय, अभिनेत्र्याः अभिमानिनः तत्र सम्मिलिताः. अभिनेत्र्याः
तत्र
स्त्रीलिङ्ग बहुवचनम्.
अस्तु भगिनि, अभिनेत्र्याः भगिनि, एकनिमिष. तत्र सम्मिलिताः इति विभक्ति का भगिनि?
सम्मिलिताः बहुवचनं महोदय.
बहुवचनम्, अस्तु. अभिमानिनः इति बहुवचनं वा?
अभिमानिनी
प्रथमविभक्ति एकवचनरूपं किम् अस्ति? अभिमानी अभिमानिनौ अभिमानिनः
अभिमानिनः पुल्लिङ्गम्
हा पुल्लिङ्गमस्ति अभिमानिनः सम्मिलिताः अतः अभिमानिनः सम्मिलिताः इति एकवचने रूपं किं भवति
अभिमानी
तत्र सम्मिलितः
सम्मिलितः
एकः अस्ति चेत् तत्र सम्मिलितः इति न वक्तुं शक्नुमः किन्तु हा अस्तु अतः अभिमानिनः तत्र सम्मिलिताः इति अस्ति तत्र क्रियापदं न दत्तं किन्तु क्रियापदं योजयामश्चेत् किं भवति सन्ति अथवा आसन् अथवा सन्ति आसन् इति स्वीकरोतु इदानीं तत्र अभिनेत्र्याः इति अस्ति तत्र किं विभक्ति प्रातिपदिकं किम् अस्ति अभिनेत्री इति प्रातिपदिकम् अत्र अतः
नद्याः
किमस्ति अभिनेत्रः इति विभक्तिका
अभिनेत्र्याः अभिनेत्री अभिनेत्र्यौ अभिनेत्र्यः
रघुपतिमहोदयेन उक्तम् इदानीमेव तत्र नद्याः इति अस्ति चेत् किं
नद्याः
भवती भवत्याः नाम किम् इति यदि संस्कृतस्य पठनम् आरम्भं कुर्मः प्रथमवाक्यमेव अस्ति भवतः नाम किं भवत्याः नाम किं तत्र ईकारान्तस्त्रीलिङ्गपदस्य षष्टिविभक्ति प्रथमदिनात् एव वयं जानीमः तत्र खलु खलु तत्र किमर्थं संशयः अभिनेत्री अभिनेत्र्याः नदी नद्याः भवती भवत्याः इति तत्र षष्टी षष्टी अपि लिङ्गं किम्
लिङ्गं स्त्रीलिङ्गं
स्त्रीलिङ्गम् अतः उचितं रूपं किम् अस्ति
कस्याचित् कस्याचित्
कस्याश्चित् कस्याः योगः चित् कस्याश्चित् कस्याश्चित् अभिनेत्र्याः अभिमानिनः तत्र सम्मिलिताः सन्ति अथवा आसन् इति समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनि
अस्तु महोदय विद्यालयेषु चतुराः बालाः पठन्ति केषु विद्यालयेषु केषुचित् विद्यालयेषु चतुराः बालाः पठन्ति
केषुचित् विद्यालयेषु चतुराः बालाः पठन्ति सर्वेषु विद्यालयेषु इति न किन्तु केषुचित् विद्यालयेषु चतुराः बालाः पठन्ति समीचीनं भगिनि अस्तु रघुपतिमहोदय अग्रे
हा महोदय भारतीयाः वैज्ञानिकाः जगत्प्रसिद्धाः सन्ति अत्र केचित् काश्चित् कानिचित् अत्र काश्चित् स्त्रीलिङ्गे कानिचित् नपुंसकलिङ्गे केचित् केचित् बहुवचने भवेत् अतः भारतीयाः केचित् भारतीयाः वैज्ञानिकाः जगत्प्रसिद्धाः सन्ति
तत्र केचित् सन्ति अपि तत्र भारतीयाः इति तत्र
भारतीयाः
तत्र विशेष्यं विशेषणभावः अस्ति खलु अत्र तत्र विशेष्यं किम् अस्ति
विशेषं भारतीयाः अवैज्ञानिकविशेष्यम् अस्ति विशेषणं भारतीयाः अपि च केचित् इति जगत्प्रसिद्धाः
समीचीनं महोदय रघुवीरानन्दस्वामी अग्रे
प्रधानमन्त्री तत्स्थानं मन्त्रिभिः सह समालोचयति प्रधानमन्त्री समालोचयति केन सह
मन्त्रिभिः सह इति
मन्त्रिभिः सह किन्तु महोदय उपपदविभक्तिः अस्ति कैश्चित्
कैश्चित् कैश्चित् एव समीचीनं महोदय तत्र तत्र
मन्त्रिभिः अस्ति खलु महोदय तस्य विशेषणं भवेत्
सत्यं मन्त्रिभिः किमर्थं केनचित्
न केन
बहुवचने मन्त्रिभिः
महोदय
अतः मन्त्रिणा सह भवेत् केनचित् मन्त्रिणा सह
कैश्चित् मन्त्रिभिः सह कैश्चित् मन्त्रिभिः सह मन्त्रिभिः तत्र मन्त्रिभिः इति तृतीया बहुवचने अतः कैः तत्र चित् नास्ति चेत् तत्र प्रश्नवाचकं किं भवति तत्र मन्त्रिभिः सह कैः मन्त्रिभिः सह समालोचयति अस्तु तत्र सः प्रश्नः अस्ति चेत् उत्तरं भवति न जानामि कैश्चित् मन्त्रिभिः सह समालोचयति सः इति उत्तरं भवति कैश्चित् इति समानविभक्ति समानवचनं लिङ्गं
मन्त्रिणी
तत्र मन्त्री हा सत्यं महोदय तत्र मन्त्रिणी मन्त्रिणीभिः अस्ति चेत् तत्र सः समालोचयति इति हा समीचीनं महोदय अस्तु अग्रे सूर्यकुमारी भगिनी
महोदय माधुरी वित्तकोषे अधिकारिणी अस्ति माधुरी वित्तकोषः पुल्लिङ्गः पुल्लिङ्गसमीवर्ति एकवचनं कस्मिंश्चित् वित्तकोषे
समीचीनं कस्मिंश्चित् वित्तकोषे
कस्मिंश्चित् वित्तकोषे अधिकारिणी अस्ति
तत्र कस्मिंश्चित् तत्र तत्र किं मकारः तत्र कस्मिंश्चित् इति तत्र
कस्मिन्
कस्मिंश्चित् वित्तकोषे अधिकारिणी
कस्मिंश्चित्
तत्र अनुस्वारः अस्ति भगिनि तत्र कस्मिंश्चित् इति
कस्मिंश्चित्
वित्तकोषे अधिकारिणी अस्ति माधुरी अस्तु समीचीनं लक्ष्मी भगिनी अग्रे
अस्तु राष्ट्राध्यक्षः राष्ट्राध्यक्षः क्रीडनाय पारितोषिकं प्रददाति
क्रीडकाय
पारितोषिकं प्रददाति प्रददाति कस्मै ददाति कस्मैचित् क्रीडकाय पारितोषिकं प्रददाति
समीचीनं भगिनि राष्ट्राध्यक्षः प्रददाति किं प्रददाति पारितोषिकं पारितोषिकं
प्रददाति
कस्मै न जानामि
कस्मैचित् क्रीडकाय पारितोषिकं प्रददाति
समीचीनं भगिनि अस्तु अग्रे रघुवीरनन्दनस्वामी
महोदय मम कुटुम्बे रघुपति आचार्य न करोति
करोमि वा
अस्तु अस्तु रघुपति महोदय भवानेव करोतु
अस्तु अहम् अभिनन्दामि नर्तकीः अभिनन्दामि नर्तकी इत्यस्य बहुवचने द्वितीयविभक्ति अतः काः भवेत् अतः काश्च एकवारं काश्चित् काश्चित् नर्तकीः अभिनन्दामि
अहं काश्चित् न जानामि ताः काः इति किन्तु तत्र ताः काश्चित् काः इति न जानामि किन्तु काश्चित् काश्चित् नर्तकीः अभिनन्दामि अभिनन्दामि
अहम् अभिनन्दामि
अहम् अभिनन्दामि सत्यं महोदय
महोदय नर्तकीः इति
तत्र
नदीः
नदीः नर्तकी नर्तक्यौ द्वितीय बहुवचनं समीचीनं महोदय इदानीं रघुवीरनन्दस्वामी भवान् एव अग्रिमम् अभ्यासम् आरम्भं करोति
चन उपयुज्य कृतानि वाक्यानि परिशीलयत अर्जुनः काञ्चित् अनिर्वचनीयां भीतिम् अवाप्तवान् अर्जुनः भीतिम् अवाप्तवान् अनिर्वचनीयां भीतिम् अवाप्तवान्
काञ्चित् अनिर्वचनीयां भीतिम् अवाप्तवान्.
काञ्चित् काम् इति तत्र किमर्थं काम् इति अस्ति? भीतिः इति पदस्य लिङ्गं किम्
महोदय? भीतिः प्रायः स्त्रीलिङ्गः एव.
स्त्रीलिङ्गः सत्यं, स्त्रीलिङ्गपदं. तत्र अनिर्वचनीया भीतिः, काचित् तत्र काचित् अनिर्वचनीया भीतिः अस्ति. आं भीतिम् अर्जुनः अवाप्तवान्. अतः अर्जुनः काञ्चित् अनिर्वचनीयां भीतिम् अवाप्तवान्. अस्तु, समीचीनं महोदय. अग्रे सूर्यकुमारी भगिनी, अग्रे.
अर्जुनः कृष्णं काञ्चन रसनान् पृष्टवान्.
अर्जुनः किं कृतवान्?
काञ्चन.
अर्जुनः किं कृतवान्? प्रथमस्य क्रियापदं
कृष्णं
किं कृतवान् इत्युक्ते क्रियापदं वक्तव्यम्. अर्जुनः किं कृतवान्? अर्जुनः पृष्टवान्. इदानीं तत्र पृष्टवान् पृच्छति इति अस्ति. तत्र पृच्छति इति क्रियापदस्य विशेषम् अस्ति वा? तत्र विशेषगुणम् अस्ति वा? पृच्छति इति साधारणक्रियपदम् अस्ति वा अथवा विशेषक्रियपदम्
अस्ति?
पृच्छति, हा, पृच्छति इति तत्र तव तु कृत्वा पृष्टवान्. किन्तु पृच्छति तत्र क्रियापदस्य तत्र साधारणक्रियपदं वा अथवा तत्र विशेषक्रियपदं वा? पृच्छति,
पृच्छति.
अस्तु, वाक्यं दृष्ट्वा वदतु. तत्र वाक्ये अन्यत् किं किम् अस्ति? तत्र पृष्टवान् पृष्टवान्. अस्तु, इदानीं तत्र तत्र कृष्णम् इति अस्ति, तत्र विभक्ति का?
द्वितीय एकवचनं.
द्वितीय एकवचनं कृष्णः अस्ति. तं कृष्णं पृष्टवान्,
प्रश्नान् पृष्टवान्.
प्रश्नान् इति विभक्ति का तत्र?
प्रश्नान् द्वितीयबहुवचनं.
द्वितीयबहुवचनं प्रश्नः, प्रश्नौ प्रश्नाः, प्रश्नं प्रश्नौ प्रश्नान्. अतः अर्जुनः किं कृतवान्? अर्जुनः पृष्टवान्. किं पृष्टवान्? प्रश्नान् पृष्टवान्. कं पृष्टवान्?
कृष्णं.
कृष्णं पृष्टवान्. अतः द्विकर्मकधातुः खलु, पृच् धातुः. किं पृष्टवान्? कं पृष्टवान्? द्विकर्मकधातुः. अतः कर्मपदद्वयं. तत्र कान् प्रश्नान् सः पृष्टवान् न जानीमः. अतः कान् प्रश्नान् पृष्टवान् इति न जानीमः. अतः कान् योगः चन किं भवति? अथवा कान् योगः चन किं भवति?
काञ्चन.
कांश्चन प्रश्नान् पृष्टवान्. अस्तु, कांश्चन प्रश्नान् पृष्टवान् न जानीमः तत्र कान् प्रश्नान् पृष्टवान् इति, किन्तु कांश्चन प्रश्नान् सः पृष्टवान्. अस्तु, अग्रे. हा, कान् इति द्वितीय बहुवचनं.
बहुवचनं पुल्लिङ्ग.
पुल्लिङ्ग, समीचीनं भगिनि. हा, अस्तु, अग्रे लक्ष्मी भगिनी.
हा, अस्तु महोदय. किञ्चित् अपि कार्यं करोमि इति तत्त्ववित् न मन्यते. तत्त्ववित् न मन्यते.
सः किं सः एव तत्र तत्त्ववित् न मन्यते. मन्यते इत्युक्ते तत्र भावयति. तत्र अहं तत्र किं न मन्यते?
मन्यते यत् किञ्चित् अपि कार्यं करोमि.
तत्र किञ्चित् इति अस्ति, तत्र विशेषणम् अस्ति. कस्य पदस्य विशेषणं?
कार्यम् इति नपुंसकलिङ्गम्. अतः किं कार्यं? किञ्चित् कार्यं.
किञ्चित् कार्यमपि
कार्यं करोमि.
अहं करोमि इति तत्त्ववित्
तत्त्ववित् न मन्यते.
अहं कार्यं करोमि इति सः न चिन्तयति एव. यः तत्त्वं जानाति, तत्त्ववित्. अतः किञ्चित् तत्र द्वितीयविभक्ति एकवचनं, किन्तु नपुंसकलिङ्गरूपम्. अतः भेदः नास्ति. अस्तु अग्रे रघुपति महोदय.
आम् महोदय. केनचित् प्रकारेण कृष्णः अर्जुनं युद्धे प्रेरितवान्. अतः अत्र कृष्णः प्रेरितवान् प्रकारेण, केन प्रकारेण, केनचित् प्रकारेण इति.
तत्र न जा तत्र केनचित् वयं न जानीमः. तत्र केनचित् मार्गेण सः प्रेरितवान्
महोदय. तत्र युद्धे प्रेरितवान् युद्धाय अथवा युद्धे रणरङ्गे
युद्धविषये
प्रेरितवान् इति कथं
युद्धविषये. तत्र युद्धार्थं तत्र
युद्धार्थम्
अथवा युद्ध
चतुर्थी भवति खलु युद्धार्थं युद्धकरणार्थं कर्तुं प्रेरितवान् इति. परन्तु अत्र युद्धे
इति तत्र कस्मिन् विषये प्रेरणां कृतवान् इति.
कथम् आगतम् सप्तमी किमर्थम् आगतम्
कस्मिन् विषये इति महोदय. प्रेरणां कस्मिन् विषये कारितवान्
ओ
विषयः इति अर्थे.
अन्यथा चतुर्थी भवेत् खलु युद्धाय प्रेरितवान्
युद्धाय प्रेरितवान् सत्यं महोदय. किन्तु अत्र विषयः इति अतः युद्धः इति विषये युद्धे इति. अस्तु अग्रे रघुवीरेन्द्रस्वामी.
परमेश्वरः न कस्यचित् जीवस्य पापम् आदत्ते. परमेश्वरः पापं न आदत्ते कस्य जीवस्य.
तत्र कस्यापि इति अर्थे तत्र कस्यापि जीवस्य पापं
कस्य जीवस्य कस्यचित् जीवस्य
कस्यचित् जीवस्य. किन्तु तत्र कस्यापि इति अर्थे तत्र न आदत्ते सः परमेश्वरः न आदत्ते पापं न आदत्ते कस्य सः एतादृशं करोति इति तत्र न जानीमः इति न. तत्र तु न कोऽपि न कस्यापि पापम्
अतः
कस्यापि इति अर्थः तत्र कस्यचित् इति अत्र तु न जानीमः इति अपि इति अर्थे अस्ति तत्र कस्यापि जीवस्य पापम् आदत्ते परमेश्वरः. अस्तु समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनी.
अस्तु महोदय. परमात्मा केषाञ्चन जनानां ज्ञानं प्रकाशयति. परमात्मा ज्ञानं प्रकाशयति केषां ज्ञानं
कस्य ज्ञानं केषाञ्चन. समीचीनं भगिनि. केषां योगः चन केषाञ्चन केषाञ्चन इति. समीचीनं भगिनि. तत्र केषां योगः चन
केषां जनानां केषाञ्चन जनानां
केषाम् इति विभक्ति का तत्र
षष्टि बहुवचनं
जनानाम् इति षष्टि बहुवचनम्
अतः केषाञ्चन जनानां
केषाञ्चन जनानां. तत्र केषाञ्चन इति तत्र केषां योगः चन केषाञ्चन तत्र अनुनासिकसन्धिः इति. तत्र तत्र मकार तत्र केषाम् इति मकारः अस्ति अनुनासिकवर्णः अस्ति तत्र पवर्गीय अस्ति. किन्तु तत्र तदनन्तरं च वर्गीयः अस्ति तस्य मकारस्य स्थाने च वर्गीय. तत्र च वर्गे कति वर्णाः सन्ति
पञ्चवर्णः
पञ्चवर्णाः. तत्र चत्वारः वर्णाः सन्ति पञ्चमवर्णः अनुनासिकः इति वदामः अनुनासिकः यतोहि तत्र तस्य उच्चारणसमये तत्र किं केवलं मुखेन शब्दः केवलं मुखेन नागच्छति किन्तु नासिकया अपि तत्र आगच्छति इति कृत्वा अनुनासिकः वर्णः इति वदामः. अतः तत्र अनुनासिकवर्णः तत्र ण्यकारः अतः केषाञ्चन
जनानां ज्ञानं प्रकाशयति.
हा समीचीनं भगिनि. हा तत्र तावत् तादृश उदाहरणानि तत्र अनुनासिकसन्धेहे उदाहरणानि तत्र चित् चिद् योगः मात्र इति तत्र किं भवति चिद् योगः
मात्र.
हा तत्र दकारस्य स्थाने तवर्गीय अनुनासिकवर्णः नकारः अतः तन् योगः मात्रः तन्मात्रः. चिद् क्षम्यतां चिन्मात्र चिद् योगः मात्रः चिन्मात्रः तादृशमेव तद्योगः मात्रः तन्मात्रः
तन्मात्रः
तन्मात्रः अपि तत्र षट् अथवा षट् योगः मुखः तत्र किं भवति
षण्मुखः.
हा षण्मुखः टवर्गीय
षण्मासः.
हा अपि तत्र हा समीचीनं भगिनि. अपि तत्र वाग्योगः मयं तत्र किं भवति
वाङ्मयं
वाङ्मयम् इति. हा अस्तु समीचीनम्. अस्तु अग्रे रघुपतिमहोदय अग्रिमम्
एकवारं तत्त्वज्ञानं. तत्त्वज्ञानं विना कस्यचिदपि जनस्य मुक्तिः न भवति. मुक्तिः न भवति कस्य जनस्य केन विना तत्त्वज्ञानं विना. इदानीं कस्य जनस्य कस्यचिदपि जनस्य अत्र कस्यचित् अपि अत्र कस्यचित्
जनस्य
मुक्तिः न भवति.
तत्र मुक्तिः न भवति तत्र मुक्तिः कदा न भवति तत्त्वज्ञानेन.
तत्त्वज्ञानेन मुक्तिः भवति परन्तु तेन विना मुक्तिः न भवति
कस्यचिदपि. समीचीनं महोदय. अस्तु अग्रे रघुवीरानन्दस्वामी.
नवबिन्दुः अस्ति खलु
अष्टमः महोदय अष्टमः.
चतुर्विधेषु भक्तेषु केचन अर्थाः जिज्ञासवः केचन अर्थार्थिनः केचन ज्ञानिनः च केचन
चतुर्विधा भजन्ते मां जनाः इति.
महोदय एकं केचन अपि तत्र लोपः भवति वा जिज्ञासवः तस्य पूर्वमपि केचन भवेत् खलु तर्हि चतुर्विधः.
तत्र हा सत्यं सत्यं केचन अर्थाः केचन जिज्ञासवः केचन सत्यं सत्यं महोदय. हा सत्यं सत्यं सत्यं. हा केचन अर्थार्थिनः केचन ज्ञानिनः च तत्र चतुर्विधेषु
ज्ञानिन् अर्थः जिज्ञासुः दत्तं महोदय.
सत्यं महोदय. हा जिज्ञासु यः ज्ञानम् इच्छति जिज्ञासु अर्थार्थी यः अर्थः अर्थम् इच्छति सः अर्थार्थी तत्र यः विद्याम् इच्छति सः विद्यार्थी अत्र अर्थम् इच्छति इति कृत्वा अर्थार्थी अर्थार्थिन् इति अर्थार्थिनः. इदानीं तत्र चतुर्विधमस्ति तत्र ज्ञानी अपि ज्ञानिनपि अन्तिमम् अस्ति तेषु तत्र तत्र केषु तत्र चतुर्विधेषु भक्तेषु
केचन
केचन तत्र सर्वे जिज्ञासवः इति न वक्तुं शक्नुमः अतः केचन अर्थाः सन्ति जिज्ञासवः सन्ति
सर्वे ज्ञानिनः अपि वक्तुं न शक्यते.
ज्ञानिनः सन्ति एव महोदय ज्ञानिनः सन्ति सन्ति लोके लोके सन्ति तान् वयं न द्रष्टुं शक्नुमः किन्तु ते अस्तु अग्रे रघुपति सूर्यकुमारी भगिनि अग्रे.
नवबिन्दुः सहस्रे मनुष्येषु कश्चित् जनः एव सिद्धये यतते. सहस्रे मनुष्येषु सप्तमी मनुषेषु बहुवचनं सप्तमी बहुवचनं कश्चित्
तत्र क्रियापदं किम् अस्ति भगिनि दत्ते दत्ते वाक्ये क्रियापदं किम् अस्ति यतते हा यतते प्रयत्नं करोति यतते आत्मनिपदि तत्र कः यतते अथवा का यतते कर्तृपदं किम् अस्ति न कर्तृपदं किम् अस्ति
कर्तृपदं सिद्धं
न भगिनि तत्र पश्यतु तत्र सुलभः एव अस्ति
जनः
जनः जनः यतते
जनः यतते
हा कश्चित् जनः यतते तत्र किं कर्तुं यतते
किं कर्तुं सिद्धये
हा पूर्वमपि वयं दृष्टवन्तः खलु तत्र पूर्वस्मिन् पुटे पश्यतु तत्र षष्ठवाक्यं षष्ठे अभ्यासे षष्ठवाक्यं तदेव अस्ति अत्रापि कश्चित् कः योगः चेत् कश्चित् जनः इति प्रथमविभक्ति एकवचनं पुल्लिङ्गपदम् अतः कः योगः चेत् कश्चित् इति वदतु भगिनि
एकवचनं महोदय
जनः यतते इति एकवचनम् अस्ति खलु भगिनि क्रियापदम् एकवचने अस्ति खलु यतते इति वचनं क्रियापदं जनः जनः इति कर्तृपदं जनान् इति नास्ति खलु अत्र
जनः प्रातिपदिकं जन
जन देवशब्दवत् अकारान्त
पुल्लिङ्गपदं
तत्र
जनाः
अस्तु किन्तु तत्र एकं तु तत्र तस्मात् कश्चित् प्राक् तत्र मनुष्येषु इति अस्ति तत्र विभक्तिका मनुष्येषु इति विभक्तिका तत्र भगिनि सप्तमी बहुवचनं इदानीं तत्र सहस्रे मनुष्येषु इति तत्र किं विशेषणं बहु समीचीनं भगिनि समीचीनं विशेषणम् अस्ति किन्तु सहस्रं शतं सर्वं नित्य एकवचनपदम् इति कृत्वा तत्र सहस्रे इति रूपम् अतः
विशेषणं एकवचनमेव
विशेषणम् अस्ति किन्तु तत्र सर्वदा एकवचने किं भगिनि
वचनरूपं
भेदः इति सर्वदा एकवचने एव अस्ति अतः तत्र सहस्रे मनुष्येषु इति एव समीचीनरूपम् अस्ति तत्र न तु सहस्रेषु इति तत्र न वक्तुं शक्नुमः सहस्रेषु मनुष्येषु इति न वक्तुं शक्नुमः तद् दोषाय एव सहस्रे मनुष्येषु इति रूपं समीचीनं किन्तु पूर्वस्मिन् पुटे यद् वाक्यम् आसीत् तत्र किम् अस्ति यत् भवती पठितवती
षष्ठाभ्यासेषु
तत्र तु सहस्रेषु इति अस्ति कथं तत्र सहस्रेषु इति भवति तत्र किम् अस्ति
सहस्रं
तत्र तत्र किं भवति भगिनि तत्र सङ्ख्यायाः प्रयोगद्वयमस्ति यदि तत्र मनुष्येषु सहस्रे इति भवति तत्र तु एकवचनमेव अस्ति मनुष्याणां सहस्रेषु इति अस्ति चेत् तत्र किम् अस्ति सहस्रं सहस्रम् इति समूहः मनुष्याणां समूहः चिन्तयामः प्रथमसमूहे सहस्रजनाः सन्ति द्वितीयसमूहे सहस्रजनाः सन्ति अतः मनुष्याणां सहस्रेषु समूहेषु कश्चित् यतति सिद्धये यतति इति अर्थः. अतः तत्र सहस्रेषु इत्युक्ते केवलम् एकसहस्रम् इति न, किन्तु अनेकाः सहस्रजनयुक्तसमूहाः सन्ति इति. तत्र सङ्ख्याविषये तत्र
एकवचने अत्र विंशतिः जनाः इति भवति खलु, एकवचने अस्ति,
विंशतिः आरभ्य एकवचने एव अस्ति, किन्तु
स्त्रीलिङ्गे नित्यस्त्रीलिङ्गे
अत्र अस्ति, तदनन्तरं शतं सहस्रं तत्तु
नपुंसकलिङ्गे
अपि तत्र शतं, किन्तु सहस्रम् अतः सहस्रे इति नित्य एकवचनरूपं. किन्तु तत्र
विशेषणविशेष्यभाव तत्र यद् लिङ्गं यद्वचनं न भवति तत्र
अत्र नास्ति, अत्र नास्ति, किन्तु हा सत्यं महोदय, किन्तु यदि मनुष्याणाम् इति वदामः तत्र सहस्रेषु तत्र भवितुम् अर्हति, मनुष्याणां सहस्रेषु इति, तद् मनुष्याणां सहस्राः सन्ति इति अपि प्रयोगः भवति, मनुष्याणां सहस्राः सन्ति अथवा तत्र मनुष्याणां तत्र हा सहस्राः सन्ति इत्युक्ते तत्र किं प्रथमसमूहे सहस्रमनुष्याः सन्ति, द्वितीयसमूहे सहस्रमनुष्याः सन्ति,
मनुष्याणां समूहः सहस्रमनुष्याणां
अतः मनुष्याणां
सहस्रस्य मनुष्याणां समूहः वा
तत्र, किन्तु रूपम् एतादृशमेव भवति महोदय, मनुष्याणां सहस्रम् अथवा तत्र सहस्रं तत्र सहस्राणि इति प्रायशः सहस्राणि इति हा सहस्रम् इति तत्र नपुंसकलिङ्गे सहस्रं सहस्रे सहस्राणि हा इति अथवा पुल्लिङ्गे मया स्वीकृतं, किन्तु हा तत्र नपुंसकलिङ्गे तु, किन्तु तत्र मनुष्याणां फलानां वस्तूनां इति, तदनन्तरं तत्र यदि सङ्ख्यावाचकपदम् अस्ति चेत् तत्र तस्य द्विवचनं वा बहुवचनरूपं भवितुम् अर्हति. तत्र हा तत्र इति, किन्तु इदानीं अधिकं मास्तु, किन्तु तत्र अत्र सहस्रे इति अस्ति, पूर्वस्मिन् पुटे सहस्रेषु इति अस्ति, अत्र तु सहस्रे एव समीचीनं, पूर्वस्मिन् पुटे सहस्रेषु एव समीचीनम्. अस्तु तर्हि अग्रे सरामः. इदानीं तत्र लक्ष्मी भगिनी.
हा अस्तु महोदय. कल्याणकृत् कश्चित् दुर्गतिं न गच्छति.
पुनः तत्र कः योगः चित्?
कः योगः चित्?
कश्चित् इति
कश्चित् कल्याणकृत् दुर्गतिं न गच्छति. कः दुर्गतिं कश्चित् कः दुर्गतिं न गच्छति कश्चित् कल्याणकृत्.
पुनः अत्र तत्र न कोऽपि कल्याणकृत् दुर्गतिं न गच्छति. हा यः कोऽपि कल्याणकृत् भवतु सः तु दुर्गतिं न गच्छति इति अर्थः. अस्तु अग्रे रघुपति महोदय तत्र
सुभाषितं. एतानि सुभाषितानि उच्चैः पठत. पर्यन्तो लभ्यते भूमे समुद्रस्य गिरेरपि न कथञ्चिन्महीपस्य चित्तान्तः केनचित् क्वचित्. भूमेः सीमा का इति द्रष्टुं शक्यते. समुद्रस्य पर्वतस्य वा अपि सीमा ज्ञातुं शक्यते. परन्तु राज्ञः इत्युक्ते अधिकारस्य तस्य मनसि किम् अस्ति इति केनापि कथमपि ज्ञातुं नैव शक्यते. समीचीनमेव तदस्ति, किं करोति इति न
जानाति. तत्र चित् अथवा छनयुक्तपदानि
अस्तु. कथञ्चित् महीपस्य कथञ्चित् चित्तान्तं कथञ्चिदपि कथम् इति अस्ति अत्र कथं महीपस्य चित्तान्तम् अतः कथम् इति कथञ्चित् कथञ्चित् केनापि प्रकारेण इति कथञ्चित् न भवति इति
केनचित् अथवा कुत्रचित् अथवा क्वचित्
क्वचित् कुत्रचित्
कुत्रचित् लभते तत्र चित्तस्य अन्तः न लभते केनचित् कथञ्चित् केनापि मार्गेण न लभते इति कथञ्चित् अपि न लभते
केनापि कथमपि ज्ञातुं न शक्यते
न शक्यते
क्वचित्
तत्र कुत्रचित् अपि तत्र इदानीं केवलम् इदानीं परिस्थितिः नास्ति किन्तु
आमां तादृश अस्ति
तादृश अस्ति
अतः तत्र अधिक एक अन्य श्लोकः अपि अस्ति वि शुड् नाट् गो नियर् देम् इति तेषां समीपे अति न गन्तव्यम् इति किं कुर्वन्ति इति न जानीमः किं करिष्यन्ति इति वयं ज्ञातुं न
शक्नुमः
तेषां मनसि किम् अस्ति अस्माकं
महोदय महीपति इति अर्थः राजा
महि इति जानाति खलु भगिनि भूमि इति महि महि महीपतिः तत्र वराहस्य नाम अस्ति महीपतिः इति भूवरः अस्ति खलु तत्र भू इति भूमि इत्युक्ते महि महीपति इत्युक्ते वराहः अतः महीपतिः राजा इति तत्र राज्ञः राज्ञः राजा इति पदस्य षष्ठी विभक्ति तस्य अस्तु अग्रे रघुवीरस्वामी अग्रिम सुभाषितम् अग्रिमे पुटे
आम् महोदय मिथ्यारूपं न सन्दर्श्यं केनचित् कथचित् क्वचित् यथार्थे अवगते सद्यो दुर्गतिस्तस्य जायते केनापि जनेन कदापि स्वीयं रूपम् आच्छाद्य मिथ्यारूपं न दर्शनीयं यतः यदा तत् मिथ्यारूपम् अन्यैः अवगतं भवति तदा अस्य दुर्गतिः एव भवति किन्तु इदानीं तु मुखाच्छादनम् आवश्यकमेव महोदय
एतत् केवलं मुखाच्छादनम् इति न महोदय तत्र अन्य आच्छादनस्य विषयः किन्तु समीचीनम् अस्तु तत्र चित् चनयुक्तपदानि कानि इति वरं वदतु महोदय
केनचित् मिथ्यारूपं न सन्दर्श्य केनचित्
हा केनचित् हा अपि
कर्हिचित् क्वचित्
कर्हिचित् कदाचित् इति अर्थे कदाचित्
क्वचित् क्व वेरेवर् कुत्र
हा कुत्र
कुत्रचित् वा
हा कुत्र क्व इत्युक्ते कुत्र कुत्रचित् हा यदि तत्र मिथ्यारूपं न सन्दर्श्यं केनचित् कदाचित् क्वचित् तदा किं भवति तत्र यथार्थे अवगते इति तत्र सद्यो इति तत्र सद्यः इत्युक्ते
सद्यः
हा दुर्गति तस्य जायते तस्य दुर्गति जायते तत्र
दुर्गतिः जायते वा
हा सद्यः तत्र यथार्थे अवगते तत्र किम् अस्ति यथार्थे अवगते यस्मिन् क्षणे तस्य अवगमनं भवति तत्र निजस्थितेः अवगमनं भवति तस्मिन् क्षणे तत्र सद्यः तस्मिन् क्षणे तस्य दुर्गति जायते तत्र यथार्थे अवगते इति तत्र यथार्थः अवगतः इति तत्र सतिसप्तमी इति वदामः खलु यथा यथार्थस्य अवगमनं भवति तदा तस्मिन् एव क्षणे तस्य दुर्गतिः भवति जायते इति सतिसप्तमी अपि तावदेव तत्र कदा अपि तत्र कदाचित् क्वचित् केनचित् हा केनचित् इति तृतीया अस्तु तावदेव अस्ति अस्तु एकः
त्रीणि पदानि एक एव
सत्यं महोदय हा चित् 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 इति हा
तत्र
एकं सुभाषितम् अस्ति किन्तु तद् अग्रिमे वर्गे पठामः अस्तु समयः अपि जातः अस्तु तत्र कर्हि इत्युक्ते कदा इति अर्थः कदा कदा कर्हि इत्युक्ते कदा कदाचित् केनचित् क्वचित् क्व इत्युक्ते कुत्र कर्हि इत्युक्ते कदा कदाचित् कुत्रचित् केनचित् न सन्दृश्यं
भिन्नभिन्नरूपाणि
मिथ्यारूपं न सन्दृश्यं न प्रदर्शनीयम् इति न सन्दृश्यम् अस्तु रघुवीरानन्दमहोदय स्वामी भवान् अन्ते वदति वा
ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम् नमस्कारः धन्यवादश्च महोदय.